नेपं दृष्ट्वा हरिततपिशं केसरैररुधारूढैर्राविर्भूता प्रथममुकुला कन्दलिश्चानुकच्छं दग्धारण्येष्वधिकसुरभिं कन्धामाघ्राय चोर्व्याः सारङ्गस्ते जललवमुचः सूचयिष्यन्ति मार्गम्।